इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। भारतेन एशियाई क्रीडासु महिला कबड्डीति प्रतिस्पर्धायां विजयेन सह सप्ताधिकैकशतं पदकानां महत्वपूर्ण उपलब्धि समर्जिता। प्रधानमन्त्री नरेन्द्रमोदी एशियाई क्रीडासु शतपदकानां समुपलब्धौ भारतीय क्रीडकेभ्यः वर्धापनानि प्रदत्तवान्। मंगलवासरे च क्रीडकैः सह मेलनं करिष्यति। द्विपञ्चाशततमं वस्तु सेवा ऋण उपवेशनम् अद्य नवदिल्ल्यां समायोजितम्। गृहमन्त्री अमितशाहः उत्तराखण्डस्य टिहरी जनपदे अद्य केन्द्रीय क्षेत्रीय परिषदः अध्यक्षतां कृतवान्। इजराइल देशेन युद्धसादृशी स्थितिः घोषणा विहिता हमास आक्रमणानन्तरम्। अपि च आईसीसी इति पुरुषस्य क्रिकेट विश्व चषक प्रतिस्पर्धायाम् अद्य धर्मशालायां बंगलादेशेन अफगानिस्तानदेशः षड्धावनांकैः पराजितः। अथवार्ताः विस्तरेण। एशियाई क्रीडासु भारतेन चीनस्य हांगचौ नगरे साम्प्रतं यावत् सप्ताधिकैकशतं पदकानि विजितानि। पदकेषु अष्टाविंशतिः स्वर्णपदकानि, अष्टत्रिंशत् रजतपदकानि, एकचत्वारिंशत् कांस्यपदकानि सन्ति। इदं प्रथमं वारम् अस्ति यदा भारतेन एतादृशं कीर्तिमानं संस्थापितम्। अवधेयं वर्तते यत् इदं केवलं द्वितीय वारमस्ति यत् यदा भारतं तिसृषु प्रमुखक्रीडासु ओलम्पिक राष्ट्रमण्डल एशियाई क्रीडासु शताधिकानि पदकानि विजितानि। दशाधिकद्विसहस्रतमे वर्षे नवदिल्ल्यां जातायां राष्ट्रमण्डल क्रीडायां एकाधिकैकशतं पदकानि विजितानि आसीत्। नवीनं स्वर्णपदकं पुरुषस्य कबड्डीति प्रतिस्पर्धातः आगतम्, यत्र भारतीयदलेन ईरानदेशं त्रयस्त्रिंशत् नवविंशति अंकैः पराजितम्। राष्ट्रपतिपदासीना द्रौपदी मुर्मू, प्रधानमन्त्री च नरेन्द्रमोदी चीनस्य हांगचौ नगरे नवदशतमायां एशियाई क्रीडासु शतपदकानां समुपलब्धौ भारतीयदलाय शुभकामनाः प्रदत्तवन्तौ। राष्ट्रपतिना प्रोक्तं यत् प्रथमवारं शतपदकानि विजित्य भारतेन ऐतिह्यं रचितम्। अनया कथितं यत् क्रीडकाः तत्र स्वीयान् समर्पण कौशलचरित्राणि च प्रदर्शितानि, प्रत्येकस्मिन् क्रीडके राष्ट्रं गौरवम् अनुभवति। अत्रावसरे प्रधानमन्त्री अवदत् यत् इयं भारताय महत्वपूर्णा उपलब्धिः वर्तते। असौ कथितवान् यत् भारतीयाः उत्सुकाः सन्ति यत् अस्माभिः शतं पदकानि विजितानि। श्रीमोदी तेभ्यः क्रीडकेभ्यः हार्दाः शुभकामनाः प्रदत्तवान्, येषां प्रयासैः भारतेन इयम् उपलब्धि अधिगता। अनेन आश्चर्येण प्रदर्शनेन ऐतिह्यं विरचितम्, हृदयं गौरवेण परिपूर्णं जातम्। प्रधानमन्त्री कथितवान् यत् असौ मंगलवासरे एशियाई क्रीडकानां दलैः आतिथ्यं करैः क्रीडकैः च समं वार्तां कर्तुम् उत्सुको वर्तते। क्रीडामन्त्री अनुराग सिंह ठाकुरः अपि भारतीय क्रीडकेभ्यः तेषाम् उपलब्धौ वर्धापनानि प्रदत्तवान्। नवदिल्ल्यां वार्ताहरैः समं वार्तां साधयन् असौ अकथयत् यत् एते क्रीडकाः भविष्यस्य क्रीडकेभ्यः प्रेरणां प्रददति। एशियाई क्रीडकाः द्विसप्ततिः वर्षाणाम् इतिहासे अनेकानि कीर्तिमानानि विच्छेदितवान्, नवीनं कीर्तिमानं च संस्थापितवान्। केन्द्रीय वित्तमन्त्री निर्मला सीतारमणस्य अध्यक्षतायाम् अद्य नवदिल्ल्यां द्विपञ्चाशत्तमस्य वस्तु सेवा ऋण परिषदः उपवेशनम् आयोजितम्। एतस्मिन् उपवेशने केन्द्रीय वित्त राज्य मन्त्रिणा पंकज चौधरी इत्यनेन सह राज्यानां केन्द्रशासित प्रदेशानां च वित्तमन्त्रिणः भागम् अभजन्। परिषदः उपवेशनानन्तरं वार्ताहरान् सम्बोधयन्ती वित्तमन्त्री कथितवती यत् वस्तु सेवा ऋण साग्रह आवेदन न्यायाधिकरणं प्रियंगु गुड इत्यनयोः जीएसटी इत्यनेन सम्बद्ध अनेके महत्वपूर्ण निर्णयाः निर्णीताः। अनया कथितं यद् गुट वस्तूनि 25% मूल्यं सम्प्रति अपचीय 5% जातम्, येन इक्षुक कृषकेभ्यः लाभः मेलिष्यति। आग्रहावेदन न्यायाधिकरण सम्बन्धे संशोधन विषये अनया प्रोदीरितं यत् अध्यक्षस्य न्यूनतामायुः सम्प्रति सप्तति वर्षः जातः, सदस्यानां च आयुसीमा सप्तषष्टिः जाता। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ newsonair चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। गृहमन्त्री अमितशाहः अद्य उत्तराखण्डस्य नरेन्द्र नगरे केन्द्रीय क्षेत्रीय परिषदः चतुर्विंशतितमस्य उपवेशनस्य अध्यक्षतां कृतवान्। उपवेशनस्य उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, मध्यप्रदेशस्य मुख्यमन्त्री शिवराजसिंहचौहानः, छत्तीसगढ़स्य मुख्यमन्त्री भूपेश बघेलः, उत्तराखण्डस्य च मुख्यमन्त्री पुष्कर सिंह धामी भागं गृहीतवन्तः। गृहमन्त्री अद्यैव च देहरादून नगरे वन अनुसन्धान संस्थाने नवचत्वारिंशत्तमे अखिल भारतीय आरक्षि विज्ञान कांग्रेस इत्यस्मिन् सम्मिलितो भविष्यति। फलस्तीन इत्येतस्य हमास योद्धृभिः अद्य गाजापट्टिकातः योद्धृ प्रक्षेपणानन्तरं इजराइल देशेन युद्धसादृशी स्थितिः समुद्घोषिता। हमास इत्यनेन दक्षिणीय इजराइल इत्यस्मिन् सहस्राधिकानि योद्धृ प्रक्षेपण शस्त्राणि प्रक्षेपितानि। आक्रमणमिदं विगतेषु वर्षेषु साम्प्रतं यावत् बृहत्तमम् अस्ति। वार्तानुसारं हमास इत्यस्य भुशुण्डिधारकाः इजराइल क्षेत्रे प्रविश्य महिलायाः वधं कृतवान्। पञ्चदश जनाः व्रणिताः जाता। सम्पूर्ण इजराइल क्षेत्रे युद्धक विमानानां संचेतना ध्वनिः भवति। इजराइलस्य सेना स्पष्टीकृतं यत् गजा समीनां सीमानाम् अनेकेषु स्थानेषु अवैध प्रवेशं जातम्। इजराइल सेनया प्रत्युत्तरे कार्यचरणं समारब्धम्। प्रधानमन्त्री बेंजामिन नेतन्याहू शीर्ष सुरक्षा अधिकारिणाम् आपद उद्वेशनम् अकारितवान्। इजराइलस्य सुरक्षा मन्त्रिमण्डलस्य अद्य मध्याह्नानन्तरं राजधान्यां तलवीव इत्यस्मिन् सैन्य मुख्यालये उपवेशनं भविति। प्रधानमन्त्रिणः कार्यालयेन संसूचितं यत् देशे सुरक्षास्थितिः समाकलने प्रचलति। घटनासु अस्मिन् वर्षे इजराइल सेनया प्रायशः 200 फलस्तीन जनाः मारिताः। आईसीसी इति पुरुषस्य क्रिकेट विश्व चषक प्रतिस्पर्धायाम् अद्य धर्मशालायां बांग्लादेशेन अफगानिस्तान देशः 6 धावनांकैः पराजितः। द्वितीया प्रतिस्पर्धा नवदिल्ल्याम् अरुण जेटली क्रीडांगणे दक्षिणाफ्रीका श्रीलंका देशयोर्मध्ये प्रचलति। अन्ते मुख्यवार्ता पुनरेकवारम्। भारतेन एशियाई क्रीडासु महिला कबड्डीति प्रतिस्पर्धायां विजयेन सह 70% पदकानां महत्वपूर्णा उपलब्धिः समर्जिता। प्रधानमन्त्री नरेन्द्रमोदी एशियाई क्रीडासु शतपदकानां समुपलब्धौ भारतीय क्रीडकेभ्यः वर्धापनानि प्रदत्तवान्। मंगलवासरे च क्रीडकैः सह मेलनं करिष्यति। 50वें वस्तु सेवा ऋण उपवेशनम् अद्य नवदिल्ल्यां समायोजितम्। गृहमन्त्री अमितशाहः उत्तराखण्डस्य टिहरी जनपदे अद्य केन्द्रीय क्षेत्रीय परिषदः अध्यक्षतां कृतवान्। इजराइल देशेन युद्धसादृशी स्थितिः घोषणा विहिता हमास आक्रमणानन्तरम्। आईसीसी इति पुरुषस्य क्रिकेट विश्व चषक प्रतिस्पर्धायाम् अद्य धर्मशालायां बंगलादेशेन अफगानिस्तान देशैः 6 धावनांकैः पराजितम्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ newsonair चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति इति वार्ताः।